अस्तु
क्रमेण प्रथमं प्रमायाः लक्षणवाक्यं दृष्टं, तदनन्तरम् अप्रमा. तदभाववति तत्प्रकारको अनुभवः यथार्थः, यथा शुक्ताविदं रजतम् इति लक्षणवाक्यम् अयथार्थानुभवस्य. अस्य लक्षणवाक्यस्य प्रथमभागः तदभाववत् इति. शुक्तिं दृष्ट्वा इदं रजतम् इति ज्ञानस्य प्रसङ्गः. शुक्तिः अधिकरणम् अभावस्य इति अर्थः. रजतत्वाभावः आदेयः अस्ति, तयोः स्वरूपसम्बन्धः एव. द्वितीयभागे तदभाववत्ति इत्यनेन ज्ञानस्य विषयः सूचितः. यस्मिन् विशेष्यता अस्ति तस्मिन् इति अर्थः. विशेष्यता शुक्तौ, तत्प्रकारकम् इत्यनेन रजतत्वं प्रकारः यस्य इति अर्थः. प्रकारता रजतत्वे अस्ति. आहत्य शुक्तौ अधिकरणता अपि तु ज्ञानविषयकविशेष्यता. रजतत्वाभावे आधेयता, परन्तु रजतत्वे प्रकारता. अभाव अधिकरणयोः स्वरूपसम्बन्धः. ज्ञानविषयकसंसर्गता तु समवाये अस्ति. अत्र असमानाधिकरण्यं साधितं, येन अयथार्थ अनुभवः जायते. प्रश्नः आसीत् यत् विशेष्यता अधिकरणतयोः असमानाधिकरण्यं किमर्थं न स्यात् इति. इत्युक्ते ज्ञानस्य विषयः इदं रजतम् इति. तर्हि विशेषता रजते भवेत् इति प्रश्नः स्यात्, न तु शुक्तौ इति. न तथा, यतोहि ज्ञानम् इदं रजतम् इति, न तु शुक्तिः रजतम् इति ज्ञानम्. अप्रमायाम् इदं रजतम् इत्यस्मिन् ज्ञाने इदं त्व अवच्छिन्ना अस्ति विशेष्यता. इदं त्वम् इदमि इदं त्वम् इति उच्यते. इदं त्व अवच्छिन्ना विशेष्यता, यतोहि इदं रजतम् इति ज्ञानं, न तु शुक्तिः रजतम् इति ज्ञानम्. अस्तु, अतः प्रकारता अंशे असमानाधिकरण्यं, न तु शुक्त्यांशे. अस्तु, इति दृष्टं. किञ्चित् पुनःस्मरणं कृत्वा अग्रे सरेम. कानिचन उदाहरणानि आसन् विद्याधरीपुस्तके. महोदयेन अपि गत शनिवासरे एकम् उदाहरणं महोदयेन दत्तम् अस्ति. श्वेतवर्णं क्षीरम् इत्युक्ते अत्र चिन्तयन्तु, दधि अस्ति, श्वेतवर्णदधि अस्ति. कश्चन तं दृष्ट्वा इदं क्षीरम् इति संवेति इति चिन्तयति. तर्हि अप्रमा इति कथम् उच्यते? अप्रमा कथं साधयामः? अप्रमां कथं साधयामः? राजेन्द्रमहोदय वदति वा?
आं भगिनि, प्रयत्नं करोमि. यथा श्वेत दधि वदामः, तत्र श्वेतदुग्धम् अपि च श्वेतदधि, तत्र श्वेतत्वं तु गुणः अस्ति तत्र, दधिना अपि च दुग्धे अपि तादृशी गुणः समवायसम्बन्धेन तत् भवति. परन्तु यदि दधि न अस्ति, श्वेतदधि यथा वदामः, तद् दधि न अस्ति, किञ्चित् धान्यवस्तु अस्ति दुग्धम् अस्ति तत्र तु श्वेतत्वं तु तत्र अस्ति एव परन्तु अप्रमा भवति यथा तत्र विशेषता तत् तथा तादृशी न अस्ति यदि यदि यथा तत्र श्वेत दधि न अस्ति तत्कारणात् तत् विशेषताः समान अधिकरणीयं भवति यथा यथा स्वभावस्तरे तत् श्वेत्वं तु अस्ति आधारता अस्ति परन्तु परन्तु दधि विशेषता दधि न अस्ति तत् अप्रमा भवति असाधारण असमान अधिकरणीयं भवति तत् कारणात् तत् विशेषताः तत्र विशेषताः पक्षे तत्र अप्रमा भवति एवं वा भगिनि
इत्युक्ते लक्षणवाक्यस्य वाक्यम् अनुसृत्य किञ्चित् वदति वा इत्युक्ते असमानाधिकरण्यं कुत्र अस्ति
तत्र तु अधिकरणता अधिकरणता विशेषताः तत्र असमान अधिकरणीयम् अस्ति यथा अधिकरणता तु विशेषता तु दध्याम् अस्ति परन्तु अधिकरणता तत्र अधिकरणता तु दधि न अस्ति तत् तत् कारणात् तत् असमान अधिकरणीयं भवति तत्
इत्युक्ते दधिनी अधिकरणता अस्ति इति वदति वा
न दधि तु न अस्ति तत्र अहं चिन्तयामि
वस्तुस्थितिः अस्ति यत् दधि अस्ति तत्तु वस्तुस्थितिः परन्तु कश्चन दृष्ट्वा दधि दृष्ट्वा कश्चन चिन्तयति एतत्तु क्षीरम् इति तथा कथम् अप्रमां साधयामः लक्षणवाक्यस्य अनुसरेण
तत्र तु
प्रथमम् अस्माकं प्रक्रिया का अधिकरणं किम्
अधिकरणता
कुत्र आधेयता कुत्र
तदनन्तरं
ज्ञानस्य विषयाः खलु
ज्ञानस्य आधेयता तु श्वेतत्वं अस्ति तत् अस्ति
श्वेतत्वे श्वेतत्वे अस्ति वा
अस्ति प्रकारता अपि ज्ञानमपि प्रकारता अपि तथैव समान अधिकरणम् अस्ति तत्र तस्मिन् स्थले
इत्युक्ते इत्युक्ते अस्तु श्वेतवर्णं दृष्ट्वा तस्य मनसि क्षीरम् इति चिन्तनं खलु परन्तु कश्चन धर्मः अस्ति दधिनि तदस्ति वा
न तत्तु न
ज्ञानविषये तदस्ति वा इति प्रश्नः कश्चन धर्मः अस्ति खलु दधिनि दधित्वम् इति परन्तु ज्ञानविषये किम् अस्ति किं किम् अस्ति ज्ञानविषये लक्ष्मी भगिनी हा वदतु महोदय
यदि कोऽपि चिन्तयति तत् दधि न तत् दुग्धम् अस्ति तत्रापि अस्ति अस्ति अपि श्वेतत्वं तु या प्रकारता ज्ञानः अस्ति तत्तु सत्यं तत् समानाधिकरणीयं भवति आधेयता अपि श्वेतत्वे भवति प्रकारता अपि श्वेतत्वे भवति तत् तु समानाधिकरणीयं भवति परन्तु परन्तु अधिकरणता अधिकरणता तु दुग्धे अस्ति परन्तु विशेषता तु दधिना अस्ति दधिना अस्ति तत् असमान अधिकरणीयं भवति
अस्तु लक्ष्मी भगिनी किं चिन्तयति?
अस्तु, क्षीर क्षीरत्वम् इति प्रकारता अपि च अधिकरणता दधीनि दध्नौ विस्मृतवती किम् अस्ति तत्र रंसकलिङ्गं दधि अस्तु दधि अपि च वाक्यम् अस्ति इति मन्ये क्षीरत्व अभावनिष्ठ आदेयता निरूपित अधिकरणतावति दधि इति वाक्यं अधिकरणता अपि च ज्ञानस्य विशेष्यता तयोः समानाधिकरणं किन्तु प्रकारतास्थले प्रकारतायां क्षीरत्वमस्ति आदेयता अभावे
क्षीरत्वे प्रकारता खलु
क्षीरत्वे आम् सत्यं विषये वितरितरीत्या उक्तवती क्षीरत्वे प्रकारता आदेयता क्षीरत्व अभावे अस्ति
समीचीनम्
अनन्तरं
धन्यवादः भगिनि अग्रे सन्ध्या भगिनी सम्बन्धविषये समानाधिकरण्यं दृश्यते वा
तत्र सम्बन्धः इदानीं यत्र अधिकरणता अस्ति अपि च तत्र यः द्वयोः मध्ये अभावः इति तत्र क्षीरत्व अभावः इति यः अस्ति स्वभावतः तत्र अपि च दध्नः तर्हि द्वयोः मध्ये यः सम्बन्धः अस्ति सः स्वरूपसम्बन्धः अस्ति यतोहि अभावः अस्ति इदानीम् अत्र ज्ञानविषयः विशेष्यता तु तत्र दध्नि अस्ति परन्तु प्रकारता क्षीरत्वे अस्ति तर्हि तत्र द्वयोः विशेष्यता अपि च प्रकारता द्वयोः सम्बन्धः समवायः अस्ति परन्तु तत्र सामानाधिकरण्यं नास्ति इति कृत्वा अप्रमा इति
समीचीनम् इत्युक्ते स्वरूपसम्बन्धः यथा भवत्या उक्तं क्षीराभावदधि द्वयोः मध्ये स्वरूपसम्बन्धः परन्तु समवाये संसर्गता अस्ति तत्र असमानाधिकरण्यम् सम्यक् एव भगिनि अस्तु अतः अप्रमा इति उच्यते राजेन्द्र महोदय इदानीं स्पष्टं खलु
भगिनि अहं चिन्तयामि यथा महोदयेन गतशनिवासरे तत्र तु श्वेतत्वम् अस्ति आसीत् यथा विशेषतयाः विशेषतायाः तत्र अस्ति तत् असमानाधिकरणम् अस्ति श्वेतत्वम् आसीत् अपि च दुग्धम् अपि च दधि तत् तत् दधित्वं तु तत्र प्रसङ्गः न आगतः तथैव मम चिन्तनम् आसीत् यथा अहम् उक्तवान् श्वेतत्वं तत्र प्रसङ्गः आसीत् यथा अस्मिन् उदाहरणे शुक्तौ यत्र प्रकारतयाः तत्र आद्यत्व अभावे प्रकारत्वं प्रतियोगिनी चेत् अप्रमा तत्र अहं चिन्तितवान् महोदयेन तत्र दधि अपि च दुग्धं स्वीकृत्य तत् श्वेतत्वं स्वीकृत्य तत् विशेषतयाः प्रसङ्गे कथं अप्रमा भवति तत् मम चिन्तनम् आसीत् तत् तथैव अहं श्वेतत्वं स्वीकृतवान् दधित्वम् अथवा दुग्धत्वं न स्वीकृतवान्
अस्तु इत्युक्ते श्वेतत्व अवच्छिन्न विशेषता अपि तु श्वेतत्व अवच्छिन्न अधिकरणता इति वा
आम् आम् आम्
न भगिनी श्वेतते महोदय प्रकारता उक्तवान् वर्गे श्वेतस्य प्रकारता अस्ति विशेषतयो समानाधिकरणस्य उदाहरणं महोदय दग्जी मोर्षि
इत्युक्ते दधि तु एकमेव अधिकरणं विशेषता अधिकरणतयोः अधिकरणं दधि इति वा
आमां
तर्हि प्रकारता श्वेतत्वावचना भवति इति वा
महोदय श्वेतस्य प्रकारता उक्तवान्
हाम् अस्तु श्वेतत्वं दृष्ट्वा अप्रमा आसीत् तस्य इति कृत्वा प्रकारता श्वेतत्वावचिन्ना भवति परन्तु आधेयता कुत्र
अधेयता यदि दग्धिं उक्तं वयं वदामः साधेयता दग्धि अस्ति वा क्षीर अस्ति वस्तुतः किम् अस्ति तत् तत्र अधेयता भवति ज्ञान अप्रमा अस्ति तत्र विशिष्यता अस्ति सो दग्धिम् अधेयता अस्ति क्षीरता क्षीरे विशेषता
जयन्ति भगिनि अत्र एतादृशं सरलरीत्या वक्तुं शक्यते स्वभावसिद्ध अधिकरणता अपि च ज्ञाननिरूपितविशेष्यता दधिनी अस्ति
परन्तु
एकनिमिषं दधिनी सामानाधिकरण्यं वर्तते अधिकरणता अपि च विशेष्यता तयोः स्वभावसिद्ध अधिकरणता अपि च ज्ञाननिरूपितविशेष्यता दधिनि अस्ति इति एकम् इदानीं ज्ञाननिरूपितप्रकारता श्वेतत्वे अस्ति किन्तु स्वभावसिद्ध आधेयता श्वेतत्व अभावे अस्ति अभावः इति वदामश्चेत् कस्य अभावः इति वक्तव्यम् इति कृत्वा स्वभावसिद्ध आदेयता श्वेतत्व अभावे अस्ति तत् केन सम्बन्धेन अस्ति इत्युक्ते
सम्बन्धेन अस्ति श्वेतं क्षीरमपि श्वेतं खलु
तत्र अखिल भगिनी यथा सरला भगिनी उक्तवती तत्र सा प्रायः अधिकरणता इत्यत्र आदेयता इति उक्तवती भगिनी तदर्थमेव प्रायः भवत्याः मनसि किञ्चित् भ्रमः आगतः इति चिन्तयामि तत्र स्वभावतः यत् आदेयता अस्ति इत्युक्ते आदेयता अपि च प्रकारतायोः सामानाधिकरण्यं वर्तते श्वेतत्वे यतोहि दधि अपि श्वेतं दुग्धमपि श्वेतम् इति कृत्वा तत्र सामानाधिकरण्यम् अस्ति परन्तु एकक्षणं महोदय अपि च परन्तु इदानीं विशेष्यता अस्ति तत्र अस्माकं पुरतः दुग्धमस्ति खलु तद् दधि इति चिन्तयामः इति अस्ति चेत् तत्र अधिकरणता अस्ति दधिनि क्षम्यताम् अधिकरणता अस्ति तत्र दधि इति वस्तुस्थितिश्चेत् तत्र अधिकरणता अस्ति दधिनि विशेषता अस्ति दुग्धे इति कृत्वा अधिकरणता तयोः समानाधिकरणं नास्ति चेदपि भ्रमः इति तदेव महोदयस्य तत्र दधि दुग्धयोः उदाहरणं महोदयः स्वीकृतः एतस्य स्पष्टीकरणार्थम् इति मम अवगमनम् आसीत्
तथैव अहमपि चिन्तयामि
अस्तु प्रायः तदेव अहं सम्यक्तया मम स्मरणं नास्ति परन्तु प्रायः विशेषता अधिकरणतयोः असमानाधिकरण्यं प्रदर्शनार्थं दधिनि अधिकरणता दुग्धे क्षीरे विशेष्यता इति उक्तं यथा भवत्या उक्तमपि इति मन्ये परन्तु यथा सन्ध्या भगिन्या उक्तं तदपि सम्यक् इति मन्ये इत्युक्ते
यथा सन्ध्या भगिनी उक्तवती तत् सम्यक् अस्ति यथा वयं श्वेतत्वं न चिन्तयामः दधित्वं चिन्तयामः तत्तु सम्यक् अस्ति तत् दुग्धम् अस्ति परन्तु दधि स्वीकृत्य तत् प्रकारताविषये आधयिता प्रकारताविषये तत् समान अधिकरणं करणं भवति तत्
सत्यं द्वयमपि सत्यं भगिनि इत्युक्ते स्वीकुर्मः चेत् तत्र एता प्रकारतायोः तत्र सामानाधिकरण्यं न भवति श्वेतत्वम् इति स्वीकृत्य चिन्तयामः चेत् तत्र विशेषता अधिकरणता तयोः सामानाधिकरणं न भवति
आं शुकन शुकवन महोदय
हा तत्र सम्बन्धविषये का गतिः अखिला भगिनी यदि श्वेतत्वे प्रकारता अपि च आधेयता तयोः मध्ये सामानाधिकरणं वर्तते इति स्वीकुर्मश्चेत् सम्बन्धताविषये का गतिः
तत् अहं चिन्तयामि स्वरूपसम्बन्धः एव अस्ति एकस्मिन् पक्षे तत् संसर्गता समवायसम्बन्धेन अस्ति परन्तु स्वभावतः
कस्मिन् कस्मिन् पक्षे इति वदतु एकस्मिन् इत्युक्ते कस्मिन्
स्वरूपतः किं भवति सम्बन्धः सम्यक् प्रश्नः एव
न तत्र सम्बन्धे प्रायः तत्र चिन्तयामः चेत् श्वेतत्वं दधिनी अस्ति समवायसम्बन्धेन अपि च श्वेतत्वं दुग्धौ अस्ति समवायसम्बन्धेन दुग्धे दुग्धम् इति स्वीकुर्मः चेत् तर्हि तत्र सम्बन्धे तु तत्र सामानाधिकरण्यम् अस्ति एव केवलम् अधिकरणता विशेषता तयोः मध्ये सामानाधिकरण्यं नास्ति
अधिकरणता अपि च विशेषता मध्ये सामानाधिकरण्यं नास्ति चेत् सम्बन्धता अपि च संसर्गतायोः सामानाधिकरणं कथं भवितुमर्हति
न तत्र अस्माकं वस्तुस्थितिः का वस्तुस्थितिः अस्ति श्वेतवर्णः अस्ति दधिनि इति दधिनि श्वेतवर्णं केन सम्बन्धेन अस्ति तत्र समवायसम्बन्धेन अस्ति तद् दृष्ट्वा इदानीम् अहं चिन्तयामि तद् दुग्धम् इति तर्हि दुग्धे अपि श्वेतवर्णः समवायसम्बन्धेन एव अस्ति खलु
आम्
तर्हि तत्रापि समवायसम्बन्धः एव मम ज्ञाने अपि तदेव इदानीं ज्ञाने यत् यदस्ति तत्रापि तदेव वार्ता
इत्युक्ते यदा तत्र चित्रमस्ति किल भगिनि द्वि अधिकशततमचित्रमस्ति किल तादृशं किञ्चित् वदतु अत्र
यथा भगिन्या उक्तं विस्तृतरूप्या एव उक्तं खलु इत्युक्ते दधि दधिनि अधिकरणता तुब्बे विशेष्यता
अस्तु अनन्तरं
पुनः पुनः श्वेतत्वं द्वयोः अपि अस्ति इति कृत्वा श्वेतत्वे आधेयता स्वभावतः अपि तु ज्ञानतः अपि श्वेतत्वे प्रकारता श्वेतत्वं दधिनी अस्ति श्वेतत्वं समवायसम्बन्धेन पुनः श्वेतत्वं क्षीरे वा दुग्धे समवायसम्बन्धेन एव इति तत्रापि संसर्गता एकस्मिन् अधिकरणे एव समवाये इति
तत्र अभावः इति पदं भवत्या उक्तं वा
अभावः इति नास्ति खलु इदानीं
भिन्नरीत्या उक्तं चेत् तत्र अभावः एव नास्ति परन्तु अस्माकं द्विप्रकारक तर्कौ
अभावः भवेत् किल भ्रमास्थले अभावः भवेत् यस्य कस्यापि अभावः अस्ति तत्र नो चेत् प्रमा भवति
न अतः एव अत्र अधिकरणम् अधिकरणता विशेष्यता द्वयोः भिन्न भिन्न अधिकरणे भिन्ने अधिकरणे इति कृत्वा तत्र अप्रमा भवति दधि इति अधिकरणं स्वभावतः
महोदय इदानीं यदा तत्र उदाहरणमस्ति तत्र शुक्तौ शुक्तित्वम् इति न स्वीकृतवन्तः खलु, तत्र रजतत्वं रजतत्व अभावः इति स्वीकृतवन्तः. तथा चिन्तयामः चेत् इदानीं तत्र यदा वयं दुग्धम् इति चिन्तयामः, तत्र दुग्धं वस्तुतः वस्तुस्थितिः अस्ति दधि खलु, तर्हि तत्र दुग्धाभावः अस्ति. तर्हि दुग्धाभावः इति दुग्धाभावे अधिकरणता इति चिन्तयामः चेत् तत्र प्रायः स्वरूपसम्बन्धः इति आगच्छति. परन्तु दधिः दधि अस्ति अस्माकं पुरतः इति चिन्तयामः चेत् दधिनी अधिकरणता, तत्र तु अभावस्य प्रसङ्गः नास्ति. अपि च एतदेव शनिवासरकक्षायामपि अभावस्य प्रसङ्गे न
चर्चितं
खलु. अपि च तत्र यत्र सम्बन्धयोः मध्ये अपि तत्र समानाधिकरणं न भवति इत्यपि महोदयेन उदाहरणं दत्तवान्. तत्र घटः भूतले समवायसम्बन्धेन अस्ति इति चिन्तयामः चेत् तत्र वस्तुस्थितिः अस्ति संयोगसम्बन्धः, ज्ञानतः समवायसम्बन्धः, तर्हि तत्र सामानाधिकरण्यं नास्ति सम्बन्धे इति कृत्वा तत्रापि अप्रमा भवति इति.
प्रायः अन्यरीत्या अहं प्रयत्नं करोमि. तत्र इदं रजतम् इति ज्ञाने शुक्तौ रजतत्वम् अस्माभिः आरोपितम्. अत्र किं कृतं, श्वेतत्वे दधित्वम् आरोपितं किल, आरोपितं किल. अत्र श्वेतं दृष्ट्वा एव वयं वदामः तत् दधि इति, तत् क्षीरम् इति अस्माभिः चिन्तितं, ब्रह्मज्ञानं प्राप्तम्. अत्र श्वेतमेव किमिति आधारः अस्माकं ज्ञानस्य. तस्मिन् दधि दधित्वधर्मः अस्माभिः आरोपितम्.
हा अत्र महोदय, अत्र एकया रीत्या धर्मम् आदाय अप्रमा साधितुं शक्नुमः. अन्या रीत्या श्वेतत्वम् इत्युक्ते श्वेतं दधि श्वेतं क्षीरम् इति, तत्र श्वेतत्वे अधेयता, श्वेतत्वे प्रकारता, कीदृशं दधि कीदृशं दुग्धम् इति, तत्र श्वेतत्वम् आदाय तत्र प्रकारता वा अधेयता तयोः समानाधिकरण्यं साधयित्वा. परन्तु अत्र दधि दुग्धम् इति यः वस्तु यत् अस्ति तद् दधि स्वभावतः, परन्तु मम मनसि दुग्धम् इति चिन्तनं तत्र असमानाधिकरण्यम् अपि तत्र असमानाधिकरण्यं साधयित्वा अप्रमा इति वक्तुं शक्नुमः. अतः अत्र रीतिद्वयम् इति मन्ये. एकं तु धर्मं स्वीकृत्य तत्र धर्माभावः इति वक्तुं शक्नुमः.
किन्तु महोदयेन किम् उक्तं, तत्र केवलं श्वेतत्वे समानाधिकरण्यम् अस्ति
आम् आम्
इति उक्तं, सम्बन्धविषये किम् उक्तं, समानाधिकरण्यम् अस्ति वा न वा?
समानाधिकरण्यमेव खलु, तत्र अभावः इति न, द्वयोरपि श्वेतत्वमेव अस्ति खलु.
भवतु, तत्र एवमेव
समवायसम्बन्धः, द्वयोरपि समवायसम्बन्धः, अतः तत्र समानाधिकरण्यमेव.
हा, महोदयेन यदुक्तम् इति चेत् आदेयता अपि च प्रकारतयोः मध्ये समानाधिकरण्यं वर्तते, सम्बन्धता संसर्गतायोः मध्ये समानाधिकरणं वर्तते, किन्तु अधिकरणता विशेषतयोः मध्ये समानाधिकरणं नास्ति इति उक्तं वा?
आम् आम् आम्.
अस्तु अस्तु
अस्तु अस्तु, पठामः. बालसुब्रह्मण्यं महोदय.
पठामि वा महोदय?
प्रत्यक्षादिविभागः इति शीर्षकः.
प्रत्यक्षादिविभागः यथार्थ अनुभवस्व अनुभवचतुर्विधः प्रत्यक्ष अनुमिति उपमिति साधवेद. तत्कारणम् अपि चतुर्विधं कारणमपि चतुर्विधं प्रत्यक्ष अनुमान उपमान शब्दभेद पूर्वम् अशब्दभेद अत्र शब्दभेद
पूर्वं शाब्दभेदात् इति अस्ति
पूर्वं शाब्दभेद इदानीं शब्दभेद
अग्रे
यथार्थ अनुभवस्य चातुर्विध्यम् आह यथार्थ अनुभव इति
वदतु महोदय
अत्र यथार्थ अनुभवः चतुर्विधः सन्ति प्रत्यक्ष अनुमिति उपमिति शाब्दः भेदः इत्यादि शाब्दभेदः अनन्तरं तत् करणं करणविषये अपि चतुर्विध भेदाः सन्ति प्रत्यक्ष अनुमान उपमान शब्दभेदाः इति
शब्दः इति
शब्दः इति यथार्थ अनुभवस्य चातुर्विध्यमाः यथार्थ अनुभव इति अनुभव
समीचीनम् इत्युक्ते
अनन्तरं
इत्युक्ते ज्ञानं चतुर्विधं भवति पुनः करणमपि चतुर्विधम्
इति भवति
समीचीनम् अस्तु पठतु महोदय
प्रत्यक्षम् इति अत्र प्रतिगतमक्षम् इन्द्रियं यस्य इति व्युत्पत्त्या प्रमितिपरमिदं पदम् विषयं प्रतिगतं सन्निकृष्टम् इन्द्रियं यस्य इति निरूपणे सति विषयस्य इन्द्रियस्य च सन्निकर्षलाभः तादृशसन्निकर्षजन्यता च प्रमायाः प्रत्यक्ष इति पदेन लभ्यते सो प्रत्यक्षम् इति विषयः प्रतिगतम् अक्षम् इन्द्रियं यस्य इति उत्पत्त्या प्रमितिपरम् इदं पदम् केवलं प्रत्यक्षम् इति वार्तायाः यस्य इन्द्रियं प्रतिगतमक्षम् इति उत्पत्ता प्रमितिपरम् इदं पदम् विषयं प्रति गतं सन्निकृष्टम् इन्द्रियं यस्य इति निरूपणे सति विषयस्य इन्द्रियस्य च सन्निकर्षलाभः विषयं प्रति इन्द्रियं विषयम् एतयोः मध्ये सन्निकृष्टं यस्य भवति निरूपतः विषयस्य इन्द्रियस्य मध्ये सन्निकर्षलाभः सन्निकर्षं भवति तेन सन्निकर्षात् तादृशसन्निकर्षजन्यता च प्रमायाः प्रत्यक्ष इति पदेन लभ्यते ते सन्निकर्षद्वारा सन्निकर्षकारणात् प्रमायाः जन्यता प्रत्यक्ष इति उच्यते
प्रमायाः जन्यता इत्युक्ते केन जन्या भवति प्रमा
प्रत्यक्ष भवति ज्ञानं भवति
प्रमा इत्युक्ते प्रत्यक्षं खलु अत्र अस्मिन् परिच्छेदे प्रत्यक्षम् इत्युक्ते ज्ञानं
प्रमा इति ज्ञानम् अत्र प्रत्यक्ष इति उक्तं
केन जायते प्रत्यक्षम्
केन सन्निकर्षेण जायते
इन्द्रियार्थसन्निकर्षेण प्रमिति इत्युक्ते
प्रमिति इति प्रमा प्रमिति इति
प्रमा एव
अनुभवरीत्या प्रमा
प्रमा ज्ञानात्मकं पदम् इति अर्थं प्रमित्यात्मकं पदम् अस्तु अत्र केवलं प्रमा कथं जायते इन्द्रियसन्निकर्षेण जायते इति ज्ञानस्य विषये ज्ञानम् इत्युक्ते प्रत्यक्षम् इति अस्तु आम्
अत्र प्रमिति परम् इदं पदं तत्र परम् इति यदस्ति तस्य किं वैशिष्ट्यं तस्य अर्थः कः
प्रमिति परम् इत्युक्ते प्रमिति एव इति मम अवगमनम् अखिल भगिनि
तदेव भगिनि परम् इत्युक्ते तत्र अर्थकम् आत्मकम् इति उक्तवान् तर्हि प्रमित्यात्मकम् इदं पदम् इति
प्रमितिविषये
अस्तु धन्यवादः
तदेव अस्ति अर्थः अस्तु हा राजेन्द्रमहोदय
आं भगिनि इदं निर्वचनं भगिनि तथा इदं निर्वचनं प्रत्यक्षपदस्य प्रमापरत्वे ग्राह्यम् इन्द्रिये अपि कर्णे प्रत्यक्षव्यवहारस्तु प्रतिगतं न इन्द्रियं प्रत्यक्षम् इति एव निर्वचनेन सिद्ध्यति इदं निर्वचनं प्रत्यक्षपदस्य प्रमापरत्वे ग्राह्यं यथा उपरि दत्तमस्ति तत् प्रत्यक्ष प्रतिगतम् इन्द्रिय तत्र प्रमा भवति तत् सन्निकर्षेण प्रमा भवति तत्र प्रत्यक्षपदस्य अपि सः यथा तथैव प्रमा परत्वे ग्राह्यं तत् प्रत्यक्षं यथा भवति तत् प्रमा एव तत्र ग्राह्यं यथा इन्द्रियसन्निकर्षं भवति तत् विशेष सन्निकर्षे तत् भवति तत् प्रत्यक्षं प्रमा एव गायम् एवं भगिनि
पूर्वस्मिन् परिच्छेदे यत् सूचितम् अस्ति प्रत्यक्षम् इत्यनेन तेन प्रमा एव ग्राह्यम् इति
इन्द्रिये तत् एकः भागः अस्ति प्रत्यक्षं यथा जायते तत् प्रमा जायते इन्द्रिये अपि कर्णे प्रत्यक्षव्यवहारस्तु प्रतिगतम् इन्द्रियं प्रत्यक्षम् इति एव निर्वचनेन सिद्ध्यति इन्द्रिये अपि यथा तत् सन्निकर्षं गच्छति तत् प्रत्यक्षव्यवहारस्तु महोदयेन उक्तवान् तत् प्रत्यक्षस्य प्रयोगः तत्र इन्द्रिये प्रतिगतं तत् प्रत्यक्षं जायते तत् तम् अपि प्रत्यक्षम् एव वदामः परन्तु तत् ज्ञानस्य विषयः नास्ति तत्तु केवलम् इन्द्रिये तत् विषयं प्रति गत्वा तत्र तत् प्रत्यक्षं भवति इन्द्रियैः तत् विषयेन सह प्रत्यक्षं भवति तत् परन्तु ज्ञानस्य विषयः न तत् तदा न आगच्छति तदनन्तरम् एव ज्ञानस्य विषयः आगच्छति सम्यक्तया न जानामि भगिनि
न यत् भवान् अस्तु प्रथमं तु पूर्वस्मिन् परिच्छेदे ज्ञानम् इत्यस्य विवरणम् अस्ति प्रत्यक्षम् इति ज्ञानं तस्य विवरणम् अस्ति अत्र तु प्रत्यक्षम् इति करणम् अपि अस्ति यथा इन्द्रियं यत् इन्द्रियं विषयेण सह सम्बन्धितम् अस्ति इन्द्रियस्य सम्बन्ध अत्र सूचितम् अस्ति तदपि प्रत्यक्षमेव इति प्रतिगतम् अक्षम् इन्द्रियं प्रत्यक्षम् इति निर्वचनम् अस्ति तत्र केवलं एकेन वाक्येन अत्र विवरणम् अस्ति, दत्तम् अस्ति, विस्तृतरीत्या नास्ति, परन्तु केवलम् उक्तम् अस्ति यत् इन्द्रियम् अपि प्रत्यक्षमेव इति.
यथा प्रमा जायते तदपि प्रत्यक्षं, यथा करण कर्णेन सह किमपि इन्द्रेण सह तत् सन्निकर्षः भवति, तत्र अपि प्रत्यक्षम् एव वदामः.
इन्द्रियमपि प्रत्यक्षम् इति उच्यते.
ज्ञानमपि
प्रत्यक्षम्. आम् आम्.
प्रत्यक्षपदस्य प्रमा अपरत्वे ग्राह्यं, तत्र प्रमा अपरत्वे प्रमा परत्वे वा अपरत्वे, तत्र किं कथं तत्र सन्धिविभजनं करणीयम्?
प्रमा परत्वे ग्राह्यम् इति अहं सम्यक्तया न जानामि भगिनी. अखिला भगिनी वा शुकवन महोदय किञ्चित् प्रयत्नं करोति वा?
प्रमा अपरत्वे इति चेत् तत्र अवग्रहः भवेत्.
अवग्रहः नास्ति, प्रमा परत्वे एव अस्ति.
हा हा, प्रमा अपरत्वे इति आसीत् चेत् तत्र अवग्रहः दातव्यं भवति.
न, अवग्रहचिह्नस्य सर्वदा आवश्यकता नास्ति महोदय, अतः तत्र कदाचित् भवेत् कदाचित् न भवेत्. परन्तु अत्र मम ऊहा अस्ति प्रमा एव ग्राह्यम् इति अस्ति, अतः प्रमायाः परं किमपि नास्ति, प्रमायाः अपरम् अस्ति, भिन्नं नास्ति इति कृत्वा प्रमा अपरत्वम् इति मम चिन्तनं. सम्यक् वा मम ऊहा अस्ति तथा?
इत्युक्ते प्रमा परं यत् अस्ति तेन ग्राह्यम् इति वा?
प्रमा विहाय किमपि नास्ति इति तादृशार्थः इति राजेन्द्रमहोदयेन उक्तं किल, प्रमा एव ग्राह्यम् इति अत्र. तर्हि तत्र तर्हि पदस्य तत्र पदस्य विषये प्रमा अपरत्वे इति मम ऊहा अस्ति.
अपरत्वे इत्यस्य अर्थः अपरत्वम् अपरत्वे इत्यस्य अर्थः भवती वदति अन्यत् किमपि नास्ति इति, किन्तु तादृश अर्थः न मिलति.
पूर्वस्मिन् परिच्छेदे प्रमिति परम् इति अस्ति, तदेव सूच्यते अत्रापि प्रमापरत्वं, प्रमा एव प्रमात्मकं ज्ञानं ग्राह्यम्
इति, प्रमार्थकत्वे ग्राह्यम् इति एव.
सम्यक्
अस्तु.
भगिनी एकः प्रश्नः, प्रमिति इत्युक्ते अर्थः किं?
प्रमा एव इति उक्तवान् महोदय.
ओ, प्रमिति इत्युक्ते प्रमा एव.
इत्युक्ते प्रमा एव
इत्युक्ते तत्र प्रत्यक्षम् इति पदेन अर्थद्वयं लभ्यते, तत्र इन्द्रियमपि सूचयति अपि च ज्ञानमपि सूचयति.
आम् आम्, सन्दर्भं दृष्ट्वा.
किन्तु ज्ञानस्य विषयं न यदा कदापि न सूचयति. ज्ञानस्य विषयम् इत्युक्ते तत्र वस्तु
न इदानीं ज्ञानम् इत्यस्य विवरणं. ज्ञानम् इत्युक्ते किमिति? प्रमिति यथा अनुमितिः तदा प्रमिति इति महोदयेन उक्तम्.
आमामाम्
अस्तु. लक्ष्मी भगिनी अनुमितिपदम्
अनुमितिपदं तर्हि किमर्थं कम् अर्थं बोधयति उच्यते? चैत्रः अनुवदति इत्यादौ आदौ कश्चित् वदति पश्चात् चैत्रः वदति इति प्रत्ययात् अनु इति उपसर्गयोगे धातुबोध्यक्रियायाः उत्तरभावित्वं ज्ञायते. तादृशधात्वार्थः प्रकृते मितिः ज्ञानम्, तस्मात् पश्चात् जायमानं ज्ञानमिति अनुमतिशब्दार्थः. इदं चेत् पश्चात् जायमानं ज्ञानं तत्पूर्वमपि ज्ञानमेव आकाङ्क्षितम् इति आकाङ्क्षितम् इति सम्बन्धज्ञानमेव तत्पूर्ववृत्ति भवति. अस्तु, अनुमतिपदेन किं ज्ञायते इति अस्मिन् परिच्छेदे दत्तं. यदि कोऽपि वदति वदति चैत्रः इति कोऽपि वदति अनन्तरम् अन्यः किमपि वदति सः अनुवदति इति वदामः चैत्रः अनुवदति इत्यादौ आदौ अस्तु चैत्रः अनुवदति इत्युक्ते तस्मात् अस्माकम् अनुमानं भवति यत् आदौ कोऽपि किम् अन्य कोऽपि किमपि उक्तवान् अनन्तरं चैत्रः वदति तस्मात् अनुवदति इति अर्थः ज्ञायते अनु इति शब्दम् अनु इति उपसर्गयोगे उपसर्गयोगे धातुबोध्यक्रियायाः उत्तरभावित्वं ज्ञायते अस्तु अनु इति उपसर्गप्रयोगेन क्रियायाः क्रियायाः आदौ क्रियापदस्य आदौ यदि उपसर्गं युज्यते चेत् उत्तरभावित्वम् इत्युक्ते प्रथमं क्रिया एका क्रिया अस्ति अनन्तरं अनन्तरं किम अन्य अन्येन कोऽपि सैव क्रिया पुनः करोति इति उत्तरभावित्वं ज्ञायते इति तादृशधात्वार्थः प्रकृते मितिः ज्ञानम् अस्तु ओ मितिः इति एकः ज्ञानम् ओ प्रथमं यत् ज्ञानमस्ति तत् मितिः इति उच्यते अनन्तरं तस्मात् पश्चात् यत् ज्ञानं उत्पद्यते तत् अनुमति तत् ज्ञानं अनुमति इति शब्दार्थः अनुमति इति शब्दं बोधयति इत्युक्ते प्रथमम् एकं ज्ञानं अनन्तरं पश्चात् यत् ज्ञानं जायमानं तत् पश्चात् जायमानं ज्ञानम् अनुमति इति उच्यते पूर्वं यत् ज्ञानं प्रथमं जाय प्रथमं यत् ज्ञानं आकाङ्क्षितम् इति आकाङ्क्षितज्ञानम् अपि च अनुमतिज्ञानं तयोः मध्ये सम्बन्धज्ञानमेव तत् पूर्ववृत्तिः भवति अस्तु प्रथमम् एकं ज्ञानम् अनन्तरं यत् अन्यज्ञानं द्वयोः मध्ये सम्बन्धज्ञानं द्वयोः मिलित्वा द्वयोः मध्ये सम्बन्धम् अस्ति प्रथमं पूर्ववृत्तिज्ञानम् अनन्तरं तदस्ति आकाङ्क्षितं ज्ञानं पश्चात् जायमानं ज्ञानम् अनुमतिज्ञानम् इति अनुमतिशब्दः बोधयति
इत्युक्ते पूर्ववृत्तिज्ञानं यत् अस्ति तत् व्याप्तिज्ञानम् आदाय एव अनुमितिज्ञानं जायते इति उक्तं वर्गे इदं चेत् पश्चात् जायमानं ज्ञानं यत् अनुमिति या अनुमिति तत् पूर्वमपि ज्ञानमेव आकाङ्क्षितम् इत्युक्ते पूर्वस्मिन् पूर्ववृत्तिज्ञानम् आदाय एव अनुमितिः जायते इति अस्ति अत्र अतः तत् सम्बन्धितं ज्ञानं भवति अत्र व्याप्तिज्ञानमेव पूर्ववृत्तिज्ञानम् इति उक्तं व्याप्तिज्ञानम् आदाय एव अनुमितिः जायते इति कृत्वा
अस्तु भगिनि धन्यवादः व्याप्ति इति विषयं पूर्वं दृष्टवन्तः अस्मिन् समये मनसि नास्ति
व्याप्ति इत्युक्ते व्याप्तिज्ञानं किम् अस्ति राजेन्द्रमहोदय
यथा वदामः पर्वतावह्निमान् धूमवान् पर्वता धूमवान् तत्र पूर्वं कोऽपि तत् दृष्ट्वा वदति पर्वता धूमवान् वह्नि पर्वतः
अनुमितिः अनुमितिः का
अनुमिति जायते पर्वतः वह्निमान्
धूमात् इति खलु
धूमात्
व्याप्तिज्ञानं किम्
व्याप्तिज्ञानं यत्र यत्र धूमः तत्र तत्र वह्निः
यत्र यत्र हेतुः तत्र साध्यम् इति व्याप्तिज्ञानम् भगिनी लक्ष्मी भगिनी
आं भगिनि
इदानीं स्मरणम्
आमाम्
अस्तु अस्तु सावित्री भगिनी
क्षम्यतां भगिनि तत्र व्याप्तिज्ञानमेव अपेक्षितम् इति महोदयेन उक्तं वा
व्याप्तिज्ञानम् इति परन्तु तत्र
अहं किं चिन्तयामि केवलं चिन्तनार्थमेव वदामि अत्र पूर्वस्मिन् परिच्छेदे प्रमितिः इति दत्तमस्ति किल तदपि मितिः एव प्रमितिः इत्युक्ते प्रत्यक्षज्ञानम् इति अनुमितिः इत्युक्ते प्रमितेः अनु इति अपि वक्तुं शक्यते किल तत्र व्याप्तिज्ञानम् इति न तत्र परामर्शज्ञानं भवेत् पर्वतः धूमवान् इति प्रत्यक्षेन न पश्यति चेत् तत्र किमपि न तदनन्तरं किमपि न भवति व्याप्तिज्ञानम् अस्ति चेदपि तत्र पर्वतः धूमवान् इति प्रत्यक्षप्रमितिज्ञानं न प्राप्तं चेत् व्याप्तिना किम्
तत्र प्रत्यक्षं किं प्रत्यक्षज्ञानं तु धूमः एव धूमस्य ज्ञानमेव प्रत्यक्षं खलु
आम् किन्तु तद् ज्ञानं नास्ति चेत् यत्र यत्र धूमः तत्र तत्र वह्निः इति मयि व्याप्तिज्ञानम् अस्ति चेदपि पर्वतः धूमवान् इति ज्ञानं न प्राप्ते सति व्याप्तिना किमपि कार्यं न भवति किल
तत्र प्रक्रिया अस्ति काचित् प्रक्रिया अस्ति एव
आमां तद् मया ज्ञातम् इदानीम् अहं मम किं वक्तुम् इच्छामि इत्युक्ते तत्र प्रमितिज्ञान अनु अनुमितिज्ञानं भवति इति द्वितीयज्ञानम्
अस्तु
इति मम चिन्तनमस्ति तत्र
अस्तु अस्तु अस्तु
अत्रापि अस्ति तादृशधातवार्थः प्रकृते मितिः ज्ञानम् अहं स्मरामि महोदयेन उक्तवान् मितिः इत्युक्ते ज्ञानम् एव
अस्तु एवमेव उक्तवान् मया
अत्र ज्ञानम् इत्युक्ते अत्र प्रत्यक्षं वा इति प्रश्नः अत्र खलु महोदय शुकवान्
प्रत्यक्षज्ञानं वा नो चेत् व्याप्तिज्ञानं वा इति भवतु यत् मया उक्तं तत् केवलं चिन्तनमेव प्रामाणिकं नास्ति
सम्यक् एव यत् भवता उक्तं पृष्टं चिन्तनीयम् अस्ति इच्छामः
अस्तु
परन्तु सम्बन्धज्ञानम् इति अस्ति इति कृत्वा सम्बन्धज्ञानं व्याप्तिज्ञानम् अपेक्षितम् अस्ति खलु इति कृत्वा
तयोः मध्ये सम्बन्धः सम्बन्धज्ञानमेव इति पदे तयोः मध्ये सम्बन्धः सूचितः
प्रथमं जायमानं ज्ञानम् इत्युक्ते व्याप्तिज्ञानम् अनन्तरं जायमानं ज्ञानं तयोः मध्ये सम्बन्धः
नो प्रथमं जायमानं ज्ञानम् इत्युक्ते परामर्शज्ञानमेव तत्र पर्वतः वह्निमान् धूमवान् इत्येव तदेव प्रथमज्ञानम्
ओ अस्तु
धूमवान् इति प्रत्यक्षं तदनन्तरं व्याप्तिज्ञानं तदनन्तरं परामर्शः
कयोः मध्ये सम्बन्धः इति पृच्छामश्चेत् किञ्चित् तत्र समाधानं भवति इति अहं चिन्तयामि.
ज्ञानमेव आकाङ्क्षितं सम्बन्धज्ञानं यत् अत्र सम्बन्धज्ञानम् इत्युक्ते तत्र साध्ययोः सम्बन्धः प्रायः सूचितः अस्ति इति मन्ये. इत्युक्ते अत्र अत्र हेतुः तत्र तत्र साध्यम् इति तत्र सम्बन्धः भवति खलु इति मन्ये. तादृशसम्बन्धम् आदाय एव अन्तिमसोपानं जायते
व्याप्तिज्ञानमेव भवितुमर्हति.
आम् 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 अतः एव सम्बन्धज्ञानम् इति अस्ति
प्रायः.
अस्तु अग्रे सावित्री भगिनी.
आम् शाब्दबोधश्च शब्दपूर्वकत्वात् तथा व्यवह्रियते. एतेषां च प्रमाकरणानां बोधकता संस्कारनिरूपणे संक्षेपतः निरूपिता एव. तत्तन्मूलपङ्क्तिव्याख्यानावसरे च निरूपयिष्यते. अत्र तृतीयविधस्य यथार्थज्ञानस्य यथार्थ अनुभवस्य किञ्चित् दत्तमस्ति. शाब्दबोधश्च शब्दपूर्वकत्वात् तथा व्यवह्रियते. अत्र यदा शब्दः श्रूयते यस्मिन् कस्मिन्नपि वाक्ये अथवा यत्किमपि भवतु ततः किञ्चित् ज्ञानं निष्पद्यते. तदेव शाब्दबोधः इति वदामः. तथैव व्यवह्रियते इति लिखितमस्ति. एतेषां च प्रमाकरणानां बोधकता संस्कारनिरूपणे संक्षेपतः निरूपिता एव. यदा वयं दृष्टवन्तः स्मृते अथवा संस्कारविषये ते तत्रापि किञ्चित् शाब्द अपि च सर्वेषां प्रमाकरणानां बोधकता किञ्चित् उक्तम् आसीत् तत्र. यथा अत्र लिखितमस्ति तथैव आसीत् प्रत्यक्ष अनुमान अनु उपमानशब्दः इति पठि
तत्रापि संस्कार यथा संस्कारस्य चर्चा जाता तत्र किञ्चित् पठितम् अस्माभिः प्रत्येकस्मिन् ज्ञानस्य प्रत्येकं ज्ञानस्य कारणं किम् इति.
इदानीं सः वदति तन्मूलपङ्क्तिव्याख्यानावसरे च निरूपयिष्यते. अग्रे अपि निरूपयिष्यते. यत्र मूलपङ्क्तिं स्वीकृत्य व्याख्यानं रचयति तदा निरूपयिष्यते इति वदति सः. अस्तु प्रमायां विभक्तायां तत्करणमपि विभज्यते. तत्करणमिति प्रत्यक्षानुमान उपमान शब्दाः प्रमाणानि. यथा भवती उक्तवती यथा प्रमायाः प्रकाराः सन्ति उपरि प्रमिति अनुमितिः उपमिति शाब्दः इति तथैव तेषां करणमपि करणानामपि विभजनं कृतम् अस्ति. प्रत्यक्ष अनुमान उपमान शब्दः इति प्रमाणं भविष्यति. प्रत्यक्षस्य प्रमाणं भवति प्रत्यक्षमेव अथवा प्रमिति इत्यस्य प्रमाणं भवति प्रत्यक्षः. अनुमितेः प्रत्यक्ष अनुमितेः करणं भवति अनुमान. उपमितेः करणं भवति उपमान. शाब्दस्य च शब्दः इति.
समीचीनं
भगिनि. अन्य कोऽपि पठति वा?
हा अग्रे शुकमनं महोदय.
हां भगिनि, साधारणकारणनिरूपणम् इह च करणपदप्रयोगात् तदर्थस्य च चैतावता तदर्थस्य च एतावता अनुक्तत्वात् तम् आह इह च करणपदप्रयोगात् तदर्थस्य च एतावता अनुक्तत्वात् तम् आह असाधारणं करणम् असाधारणं कारणं करणम् इति इति तत्र करणप्रय पदप्रयोगात् तदर्थस्य च करणपदस्य किम् अर्थः कः अर्थः इति एतावता न उक्तम् इति कृत्वा करणं किम् इति इदानीं लक्षितमस्ति असाधारणं कारणं करणम् इति असाधारणकरणत्वपरिज्ञानाय आदौ किं नाम साधारणकारणत्वं कानि च साधारणकारणानि इति विस्तरेण चिन्तयामः कार्यस्य कारणाधीनत्वं लोकसिद्धमेव तत्रापि हि दण्डादयः पदार्थाः कारणत्वेन अभिमताः घटादीनि कतिचिदेव कार्याणि कुर्वते दण्डेन हि घटनिर्माणं गृहादिनिर्माणं ताडनम् ईदृशानि अस्माभिः ज्ञायमानानि कतिचित् कार्याणि क्रियन्ते इतोपि कः कः खलु अस्य उपयोगः इति जिज्ञास्य देशान्तरे स्थितान् कार्यान्तरे व्यापृतान् वा जनात् पृच्छामश्चेत् तेऽपि शतं दण्डकार्याणि वदेयुः नाम इदानीम् इदानीम् असाधारणं कारणं करणम् इति लक्षितं करणस्य लक्षणम् अत्र असाधारणम् इति पदमस्ति असाधारणं किम् इति अवगमनार्थं साधारणकरणत्वं किम् इति अवगन्तव्यं भवति क्षम्यतां साधारणकारणत्वं किम् इति अस्माभिः अवगन्तव्यं तदा एव असाधारणकारणत्वम् अवगन्तुं शक्यते इदानीं कार्यस्य कारणाधीनत्वं लोकसिद्धमेव आम् यदि किमपि कार्यम् अस्माभिः साधनीयं चेत् तत्र कारणस्य नास्ति करणं करणम् इति मम मनसि अस्ति कारणं कार्यं भवेत् चेत् कारणं निश्चयेन भवेत् इति अस्माभिः पूर्वं दृष्टं सर्वदा भवेत् पूर्वस्मिन् क्षणे भवेत् इति कार्यं तु कारणाधीनम् इति सर्वे ज्ञातमेव तत्रापि हि दण्डादयः पदार्थाः कारणत्वेन अभिमताः इत्युक्ते घटनिर्माणार्थं दण्डः निमित्तकारणम् इति अपि अस्माभिः पूर्वमेव दृष्टं घटादीनि कतिचिदेव कार्याणि कुर्वते इति दण्डादयः दण्डः चक्र मृद् इति बहूनि कार्याणि सन्ति कारणानि सन्ति घटनिर्माणार्थम् इति वयं ज्ञायते अस्माभिः ज्ञायते
एकनिमिषम् अत्र तु पुनः पठतु महोदय
तत्रापि हि दण्डादयः पदार्थाः कारणत्वेन अभिमताः इति तत्र दण्डादयः पदार्थाः कारणत्वेन अभिमताः इत्युक्ते कारण तेषु कारणत्वम् अस्ति इति अस्माभिः स्वीकृतम्
आम् आम्
दण्ड घटादीनि कतिचिदेव कार्याणि कुर्वते इति घटादि कार्याणां साधनाय तत्र बहूनि कारणानि अस्माभिः स्वीकृतम् अस्ति इति वा
तत्र ममपि चिन्तनम् आसीत्, मम मति अस्ति अत्र दण्डः इति कारणम् अस्माभिः स्वीकृतम् अस्ति, तत्र घटः इत्यादीनि कतिचिदेव कार्याणि कुर्वते. घटः घटः इति जलं स्वीकरणार्थम् उपयुज्यते.
आम्,
घटस्य तत्र एक प्रायः किं कीदृशं कारणम् इत्युक्ते घटे जलं पूरयामः, घटं किमपि स्थापनार्थम् उपयुज्यामः, दण्डः अपि दण्डस्य अपि बहवः प्रयोगाः सन्ति, तादृशम् अस्ति अत्र अर्थः इति अहं मन्ये.
तादृशः इत्युक्ते कार्याणि इत्यस्मिन् तत्र ओ रवि दण्डादेः पदार्थः कारणत्वेन अभिमताः, घटादीनि कतिचिदेव कार्याणि कुर्वते. ओ तत्र केषां कार्याणां विषये कारणम् इति वा?
हा हा इति मन्ये. किमर्थम् इत्युक्ते अग्रिमं वाक्ये अग्रिमे वाक्ये दण्डेन बहवः कार्याणि साधयामः इति अस्ति खलु.
आम्,
अतः
दण्डेन हि घटनिर्माणं गृहादिनिर्माणं ताडनम् ईदृशानि अस्माभिः ज्ञायमानानि कतिचित् कार्याणि क्रियन्ते. दण्डेन बहूनि कार्याणि साधितुं शक्यते इति अस्ति. इतोपि कः कः खलु अस्य उपयोगः इति, अतः अस्य इत्युक्ते दण्डस्य, इतोपि कः कः खलु अस्य उपयोगः इति जिज्ञास्य देशान्तरे स्थितान् कार्यान्तरे व्यापृतान् वा जनात् पृच्छामश्चेत्, अन्य देशे ये स्थिताः तेषां कृते वा, नो चेत् दण्डस्य कार्यान्तरम् उपयुज्यवन्तः तेषां कृते पृच्छामश्चेत् शतं दण्डकार्याणि वदेयुः. तान् पृच्छामश्चेत् दण्डेन इतोपि शतकार्याणि ते वदेयुः एव, ते साधयन्ति इति ते वदेयुः
इति दण्डस्य प्रयोगाः बहवः इति अस्ति. अस्तु,
किन्तु तत्र एकनिमिषं भगिनि, तत्र घटादीनि कतिचिदेव कार्याणि कुर्वते इति तत्र यदा अग्रे पठ्यमाने सति तत्र प्रायः मां कोऽपि पृच्छति चेत् अहं वदामि दण्डेन किं कर्तुं शक्यते इत्युक्ते केवलं घटादि कानिचन कार्याणि एव कर्तुं शक्यते इति इत्यपि तत्र स्वीकर्तुं शक्यते किल. घटस्य कार्यम् इति किमर्थं तत्र घटेन कानि कार्याणि साधितुं शक्यते इति तत्र प्रायः विवक्षा एव नास्ति इति अहं चिन्तयामि.
न महोदय, अत्र कुर्वते इति अस्ति खलु, तस्य तस्य कर्तृपदं दण्डादेयः इत्येव भवितुमर्हति. दण्डादेयः कुर्वते, दण्डादेयः किं कुर्वते, घटादीनि कतिचिदेव कार्याणि कुर्वते.
हा इत्युक्ते यथा जयन्ती भगिन्या उक्तं तादृशं नास्ति किल.
जयन्ती भगिन्या किम् उक्तं, क्षम्यतां, तत्
घटेन तत्र कानि कार्याणि साधयितुं शक्यते इति तादृशचिन्तनम् अस्ति वा इति भगिन्या उक्तम् इति मम अवगमनम्. घटे जलं स्थापयितुं शक्यते, नो चेत् तत्र किमिति तण्डुलादि ग्रेन्स् अपि तस्मिन् स्थापयितुं शक्यते इति. इदानीं तत्र यत् अखिला भगिन्या उक्तं तत् समीचीनमेव, कुर्वते इति
दण्डादयः कुर्वते इति
इत्येव मम अवगमनमासीत्, प्रायः न जानामि यतोहि एतावत्पर्यन्तं गण्डे एव कारणत्वं स्वीकृतं खलु, घटे तु कार्यत्वमेव इति कृत्वा तत्र किमर्थं तत्र घटे कारणत्वम् इति तत्र किञ्चित् भिन्नप्रसङ्गः किमर्थम् इति आसीत् मम चिन्तनं, परन्तु
किन्तु तत्र कुर्वते इति दण्डादयः इति पदेन अन्वयं कार्यम् इति नास्ति भगिनि, अभिमताः इति तत्र कृदन्तपदमपि अस्ति किल,
न न सत्यं, परन्तु तत्र सत्यम् इत्युक्ते तदेव कार्यम् इति न, परन्तु तदपि कर्तुं शक्नुमः, इत्युक्ते दण्डादयः पदार्थाः कारणत्वेन अभिमताः, दण्डादयः घटादीनि कदाचित् एव कार्याणि कुर्वते इत्यपि स्वीकर्तुं शक्नुमः.
अस्तु, किञ्चित् चिन्तनीयम्.
आम् अस्तु. सरला भगिनी अस्ति वा, भवती पठति वा? अस्तु, अखिला भगिनी एतत् पठितं भवत्या खलु मार्गे, परन्तु अत्र इदानीं तु बालसुब्रह्म महोदय पठति, तदनन्तरं अपरं भवती पठतु. अस्तु महोदय, बालसुब्रह्मण्यं महोदय.
परन्तु दण्डेन अजन्याः अपि परः सहस्रः पदार्थाः सर्वसाक्षिकाः सन्ति, न हि तेजसंयोगेन पृथिव्यां गन्धाद्युत्पत्तौ, जन्यजलादौ वा शीतस्पर्शाद्युत्पत्तौ, दण्डकारणतां कश्चित् अभ्युपैति. नारिकेलतरोः अपि खलु कल्पतरुः इति अस्मदीये कोङ्कणप्रान्ते प्रसिद्धस्य सन्ति सहस्रशः लोकसिद्धानि कार्याणि. अन्नपेक्षिते एव तथापि तु पूर्व उक्तगन्धाद् उत्पत्तौ सः इत्यश्च बहु उपकारकस्य अपि पदार्थस्य आनन्दकार्यात्मके अस्मिन् जगति काञ्चनपदार्थान् प्रति एव कारणत्वं, न तु सर्वं कार्यं प्रति. दण्डेन अजन्याः दण्डेन जन्यत्वे विहाय परः बहूनि पदार्थाः साक्षिकाः सन्ति एव, सहस्राः इति बहूनि.
एकनिमिषं, दण्डेन दण्डं विहाय वा दण्डेन विहाय इति न,
दण्डेन
अजन्याः
एवं चेत् दण्डेन
दण्डः कारणं भवति बहूनि कार्याणि प्रति खलु, परन्तु इतोपि
कारणं विना किल अजन्याः कारणं विना दण्डेन कारणं नास्ति.
बहूनि कार्याणि सन्ति यान् प्रति दण्डः कारणं न,
कारणं न एव. न हि तेजस्संयोगेन पृथिव्यां गन्धाद्युत्पत्तौ, जन्मजलादौ वा शीतस्पर्शाद्युत्पत्तौ, दण्डकारणार्थं कश्चित् अपि उत्पत्तौ. समानसमये दण्डकारणात् तेजसंयोगः अपि च गन्धात्युत्पत्तौ, पृथिव्या गन्ध उत्पत्त्यौ, जलादौ जन्यौ, शीतस्पर्शात्युत्पत्तौ इत्यादि विषयाणि दण्डकारणं कश्चित् अभि उत्पैति. दण्डः अत्र इति उपयुज्यं करो कृतः.
पुनः महोदय दण्डः
दण्डकारणतां दण्ड इत्युक्ते दण्डकारणेन एतानि विषयाणि एव किञ्चित् सम्भवति इति संयोगं पृथिव्यां गन्ध
सम्भवति इति वा
कारणं भवति कारणत्वं भवति दण्डः
कारणं भवति वा न हि इति अस्ति खलु. इत्युक्ते दण्डस्य कारणता न स्वीक्रियते कान् प्रति
एतानि विषयान् प्रति
के के विषयान्
गन्ध पृथिव्याम् उत्पत्तौ जलादौ जन्यः शीतस्पर्शादित्पत्तौ इत्यादि नारिकेलतरोः अपि कल्पतरु इति अस्मदीये कोङ्कणप्रदेशे प्रसिद्धस्य सन्ति सहस्रशः अपि च नारिकेलवृक्षा अपि कोङ्कणदेशे दक्षिणभारते अखिलभगिन्या दक्षिणभारते बहूनि ग्रामान्तरे वर्धनं कृतः दण्ड उपयोगेन दण्डकारणात् नारिकेलतरोः अपि
इदानीं तु नारिकेलतरुविषयः
नारिकेलतरोः
तस्य तस्य प्रयोगाः बहवः सन्ति खलु कोङ्कणप्रान्ते नारिकेलतरोः प्रत्येकं भागः वा किम् अवयवः वा एकैः
दण्डं प्रति एव वयं वदामः किल सो नारिकेलतरोः अपि
खलु कल्पतरु इति खलु इत्युक्ते बहु किमपि कर्तुं शक्यते तेन इति खलु अखिल भगिनि
यद्यत् कल्पयामः तत्तत् सर्वं कर्तुं शक्यते
इति
नारिकेलतरोः कल्पतरु इति अपरनाम इति अवगमनमासीत्
किमर्थम् इत्युक्ते महोदय किमर्थं कल्पतरु इति
बहूनि
कार्याणि
कर्तुं शक्यते इति कारणे प्रसिद्धस्य सन्ति सहस्र लोकसिद्धार्थे कार्याणि अन्नपेक्षिते एव तथापि तु पूर्व उक्त गन्धात्युत्पत्तौ सह पूर्व उक्त दन्द उत्पत्ति आदि विषयाः अपि अन्ने अन्नपेक्षितः
इत्युक्ते तत् न साध्यमेव खलु गन्धस्य उत्पत्तिः भवति
पूर्वमेव उक्त
नारिकेलतरुणा गन्धोत्पत्तिः भवति वा पृथिव्याम् इति अत्र प्रश्नः खलु अनपेक्षितः अस्ति तादृशप्रयोगः न दृष्टः
अनपेक्षित तथापि
तादृशप्रयोगः न स्वीकृतः वा तादृशकारणत्वं न स्वीकृतम् अस्माभिः
इत्यश्च बहु उपकारकस्यापि पदार्थस्य अनन्तकार्यात्मके अस्मिन् जगति कांश्चन पदार्थान् कांश्चन पदार्थान् प्रति एव कारणत्वं न तु सर्वं कार्यं प्रति इत्युक्ते बहूनि कार्याणि प्रति उपयुज्यते परन्तु सर्वाणि कार्याणि न.
यद्यपि नारिकेलतरोः बहवः उपयोगाः सन्ति तथापि सर्वं प्रति कारणत्वं नास्ति तस्मिन् इति इति प्रदर्शनार्थं नारिकेलतरोः उदाहरणम्. अस्तु अग्रे अखिला भगिनी.
आं भगिनि, एतद् वैपरीत्येन सन्ति वैशेषिकशास्त्रसम्मताः षट् पदार्थाः ये कार्यमात्रं प्रति निखिलकार्यं प्रति कारणानि भवन्ति. कार्यमात्रं प्रति च कारणत्वात् एतेषां साधारणकारणम् इति च अभिधा भवति. साधारणं कारणं कार्याणि प्रति विभिन्नविशेषकारणेषु सत्तु विभिन्नकार्याणि प्रति तत्तद्विशेषकारणेषु सत्सु यत् अनुगतं भवति साधारणं भवति तदेव शास्त्रे साधारणकारणम् इति व्यवह्रियते. तानि च साधारणकारणानि दिक्कालौ ईश्वरीयज्ञानेच्छाकृतयः प्राग्भावश्च इमानि षट्. प्रागभावश्च इमानि षट्. अस्तु, अत्र अस्ति इत्युक्ते इदानीं तत्र साधारणं कारणं किम् इति विषये अस्ति. तर्हि तत्र वैशेषिक शास्त्रे तत्र षट् पदार्थाः स्वीकृताः यत् सर्वेषां कार्यं प्रति इत्युक्ते निखिलकार्यम् इत्युक्ते सर्वकार्यम् इत्युक्ते प्रत्येकं कार्यं प्रति कारणानि भवन्ति इति. तत्र सर्वेषां कारणान् कार्याणां प्रति कारणं भवति इति कृत्वा तस्य नाम अस्ति साधारणकारणम् इति तस्य नामकरणम्. यत्र कार्यस्य भिन्नभिन्न अन्यकारणानि सन्ति चेदपि तेन सह एतदपि कारणं भवति इति कृत्वा इत्युक्ते ये षट् पदार्थाः सन्ति ते अपि कारणं भवति इति कृत्वा तत्र साधारणं कारणं तत् साधारणं भवति इति तत्र साधारणं कारणम् इति वदति. ते सन्ति दिक् कालः ईश्वरीयज्ञानम् इच्छा गतिः अपि च प्रागभावः इति षट् पदार्थाः तादृशपदार्थाः.
अत्र अनुगतम् इत्युक्ते
तत्र अन्यकारण विशेषकारणम् अस्ति तेन सह तस्यापि सहचर्यम् अस्ति इति अनुगतम्.
यद्यपि विशिष्ट कारणम् इति अस्ति तत्र सर्वत्र साधारणं कारणम् इति अस्ति अनुगतम् इति एव अस्ति. अस्तु, तावदेव. संजय भगिनी, भवत्या पठितं वा? क्षम्यतां,
भवती विस्मृतवती मम नाम.
क्षम्यतां भगिनि. अभवत् पाठः तु अभवत्.
अग्रिमवारं पठामि भगिनि.
अग्रिमवारं क्षम्यतां भगिनि.
अस्तु भगिनि, चिन्ता नास्ति.
जयन्ती भगिनी, एकः प्रश्नः.
आम्,
तत्र ज्ञानस्य चातुर् विध्यम् अस्माभिः दृष्टं, प्रमिति, अनुमिति, उपमिति, शाब्द इति. इदानीं व्याप्तिज्ञानं तेषु कीदृशम्?
यथा स्मृतिविषये पठितम् अस्माभिः तथा चर्चा आसीत्, परामर्शः करणं वा व्याप्तिज्ञानं करणम् इति, तथा तदा महोदयेन उक्तं परामर्शः एव करणम् इति.
मम प्रश्नः व्याप्तिज्ञानं तत्र प्रमायाः चातुर् विद्यम् अस्ति किल, प्रत्यक्षम् प्रत्यक्षम् अनुमिति उपमिति शाब्द इति भेदः वर्तते, प्रमा चत्वारः एव, तेषु व्याप्तिज्ञानम् इति कीदृशं, प्रत्यक्षं वा अनुमिति वा उपमिति वा शाब्दं वा इति प्रश्नः. व्याप्तिज्ञानमिति भिन्नज्ञानमस्ति.
अहं चिन्तयामि अनुमिति अन्तर्गत अपि एव अस्ति व्याप्तिज्ञानम्,
किन्तु अनुमित्या तत्र किमर्थं
ज्ञानस्य भेदः अस्ति, ज्ञानम् इति उच्यते खलु, अतः कीदृशं ज्ञानम् इति महोदयस्य प्रश्नः.
आम्, किन्तु अत्र किमर्थम् एतत् प्रश्नं मम मनसि आगतम् इति चेत्, अत्र अनुमिति इति विवरणे व्याप्तिज्ञानम् इति मितेः अनु जायमानज्ञानमस्ति अनुमिति इति, इत्युक्ते व्याप्तिज्ञानम् अनुमितिः न भवति, तत्पूर्ववृत्ति, तस्य पूर्ववृत्तित्वम् अस्ति, अनुमितेः पूर्ववृत्तित्वम् अस्ति व्याप्तिज्ञानस्य.
अन्य सन्ध्या भगिनी किं चिन्तयति, व्याप्तिज्ञानं कीदृशं ज्ञानं?
न भगिनि, मम नास्ति किमपि.
भगिनी तथैव महोदय अपि उक्तवान्, प्रथमं व्याप्ति भवति तदनन्तरम् अनुमति भवति,
तत्तु सत्यं सरला भगिनी. इदानीं मम प्रश्नः तद् नास्ति, व्याप्तिज्ञानम् इति ज्ञानं कीदृशज्ञानम् इति प्रश्नः. व्याप्तिज्ञानम् इति ज्ञानमस्ति, तत् प्रत्यक्षं वा अनुमिति वा उपमिति वा शाब्दं वा इति प्रश्नः.
अनुमिति, अनुमिति पञ्च पञ्चविंशति एकशत पञ्चविंशति अधिक एकशतं तमे पुटे दत्तमस्ति अनुमितिज्ञानं व्याप्तिज्ञानं तस्य.
किन्तु अत्र यत् यत् परिच्छेदम् अस्माभिः पठितम् अद्य, अत्र किं दत्तमस्ति इत्युक्ते अनुमितिः व्याप्तिज्ञानेन जायते, व्याप्तिज्ञानस्य पूर्ववृत्तित्वम् अस्ति अनुमितिज्ञानस्य अपेक्षया.
महोदय पञ्चविंशति एक 125 पेज् यू लुक् एट् देट्.
तत्र किं दत्तमस्ति इति वक्तुं शक्यते वा?
तत्र
भगिनि,
आम् आं भगिनि, आम्
अस्तु. यथा स्मृतिविषये
तृतीयं परिच्छेदं तृतीयपरिच्छेद अनुमतिस्थले कात् ज्ञातव्यं पर्वते वहनी.
सा च वह्निधूमसम्बन्धज्ञानादिना इति तत् सम्बन्धज्ञानम् अनुमानसंज्ञकं भवति अपरं प्रमाणम्. इत्युक्ते अत्रापि सम्बन्धज्ञानम् इति प्रमाणम् इति उच्यते, तत्तु भिन्नं भगिनी.
द्रोणं महोदय उक्तवान्.
आम् आम् आम्, परन्तु शुकवनमहोदयस्य प्रश्नः अस्ति यत् व्याप्तिज्ञानं प्रत्यक्षेन जायते वा?
स्मृति कृते स्मृतिज्ञानम् अस्ति इत्युक्ते दृष्टान्तः अस्ति, पाकशालायां तत्र धूमः अपि च वह्निः द्वयोपि युगपत् दृष्ट्वा युगपत् पुनः दृष्ट्वा तत् संस्कारः जायते. इदानीं यदि पर्वते अधुना यदि पर्वते धूमः पश्यते चेत् दृश्यते चेत् तदानीं स्मृतिपुत्रं तत् व्याप्तिज्ञानम् आगच्छति. वह्निः इति कारणमिति आगच्छति तथावरी अहं चिन्तयामि स्मृति इति अहं चिन्तयामि तत्
इत्युक्ते व्याप्तिज्ञानं स्मृतिः एव इति भवती वदति संस्कारमात्रजन्यं तस्मिन् अस्ति इति कृत्वा
आमाम् दृष्टान्तं पर्वतः धूमवान् तत्र दृष्टान्तम् अस्ति पाकशालायां पाकशालायां वह्नि धूमौ द्वयोपि युगपत् पुनः पुनः दृष्ट्वा तत्र अनुभवः संस्कारः सर्वं जायते तस्मात्
व्याप्तिज्ञानम् इति स्मृतेः एकविधम् इति
भूयो भूयो दर्शनेन व्याप्तिज्ञानं जायते पूर्वं तस्य प्रत्यक्षम् इदानीं यदा अनुमितिः उत्पद्यते तदा तु स्मृतिः यथा लक्ष्मीभगिन्या उक्तम्
इत्युक्ते व्याप्तिज्ञानम् इति ज्ञानं नास्ति किन्तु स्मृतिः इति
स्मृतिः अपि एकविधं ज्ञानं खलु
न संस्कारमात्रजन्यं ज्ञानं आम् संस्कारमात्रजन्यं ज्ञानं स्मृति सत्यं सत्यं तत्रापि ज्ञानम् इति दलमस्ति सम्यक्
प्रश्नः अस्ति वा
भगिनि एकः प्रश्नः अस्ति तत्र षट्विध साधारणकारणानि दिक् कालः तत्र सन्धि किमस्ति ईश्वरीयज्ञान इच्छाकृतयः तत्र ईश्वरज्ञानम् एकम् इच्छा एकं कृति तत्र ईश्वरज्ञानम् ईश्वर इच्छा ईश्वरकृति वा नो चेत् कथं तत्र विभजनं कर्तुं शक्नुमः तत्र
ईश्वरीयज्ञानम् ईश्वरीय इच्छा ईश्वरीयकृतिः परन्तु तत्र समस्तपद विग्रहवाक्यं
तत्र ज्ञान इच्छा कृतिः इति प्रथमं समस्तपदं तर्हि ज्ञान इच्छा कृतयः तत्सर्वम् ईश्वरस्य इति कृत्वा ईश्वरीयज्ञानेच्छाकृतयः इति समस्तपदम् इति चिन्तयामि इत्युक्ते तत्र ज्ञानेच्छकृतयः इति तत्र
द्वन्द्वः
किन्तु तत्र अस्तु तत् समीचीनं किन्तु तत्र षट् कथं भवति इति मम प्रश्नः
दिक् कालः ज्ञानम् ईश्वरस्य ज्ञानम् ईश्वरस्य इच्छा ईश्वरस्य कृतिः प्रागभावः इति षट्
अस्तु तदेव अस्तु अस्तु धन्यवादः
अस्तु उत्तमम् अस्तु तर्हि समापयामः धन्यवादः
धन्यवादः
भगिनी